सर्वेषां स्वागतम्. पोङ्गल् पर्वण निमित्ते शुभाशयाः. एतत् अस्ति अस्माकं द्वितीयवर्गः, सोमवासरस्य द्वितीयवर्गः अस्ति. ये गतशनिवासरे आगतवन्तः तेषां कृते पुनःस्मरणरूपेण भवति, अपि तु ये न आगतवन्तः तेषां कृते द्वितीयः वर्गः अस्ति. यत्किमपि भवतु, नूतनपाठः अपि भवति, पुनःस्मरणमपि भवति. सीमा भगिनी, स्वागतम्. अस्तु, गतसप्ताहे अस्माकं परिचयः आसीत् न्यायविषयस्य. न्यायशास्त्रम् इत्युक्ते किम् इत्यस्य परिचयः आसीत्. अस्माकं पुस्तकम् अस्ति विद्याधरी इति, प्रायः सर्वेषां पुरतः अस्ति पुस्तकं वा पी डी एफ़् इति मन्ये. अस्माभिः दृष्टं यत् तर्कसङ्ग्रहः इति ग्रन्थः अन्नम्भट्टैः रचितः अस्ति. तस्य व्याख्या, तर्कसङ्ग्रहस्य व्याख्या अस्ति विद्याधरी, देवदत्तमहोदयेन लिखिता व्याख्या अस्ति. इत्युक्ते तर्कसङ्ग्रहे यत्किमपि अस्ति, यः विषयः अस्ति, तस्य विस्तृतनिरूपणं, विस्तृतचर्चा, भिन्नानां मताः, एताः सर्वाः विद्याधर्याम् अस्ति. तेषां परिशीलनं, पठनं वयं कुर्मः. अस्तु, अपि तु न्यायशास्त्रम् इत्युक्ते षट्सु आस्तिकदर्शनेषु अन्यतमम् इति दृष्टम् अस्माभिः. किमर्थं न्यायशास्त्रस्य पठनम् इति प्रश्ने कृते दुःखेभ्यः विमोचनस्य, दुःखेभ्यः विमोचनस्य प्राप्त्यर्थं ज्ञानम् अपेक्ष्यते इति निर्णयं कृतवन्तः प्राचीनाः. अस्तु, ज्ञानम् आवश्यकम् इत्युक्ते कस्य ज्ञानं? जगति यत्यत् अस्ति तेषां ज्ञानम् अपेक्षते इति ते निर्णीतवन्तः. इत्युक्ते जगति विद्यमानानां प्रत्येकं वस्तूनां ज्ञानम् इति भवति, परन्तु तत्तु क्लिष्टकरः अस्ति इति कृत्वा प्राचीनैः कश्चन श्रेणीकरणम् अपि कृतम्. सर्वेषां वस्तूनां श्रेणीकृतं वा वर्गीकृतम् अपि कृतम्. अस्तु, तत्तु पुस्तके लभ्यते. अनन्तरं अन्नम्भट्टेन रचिते तर्कसङ्ग्रहे किमर्थं पुनः न्यायशास्त्रस्य विस्तृतप्रतिपादनम् इति प्रश्नः उदेति अस्माकं मनांसि. अन्नम्भट्टः उक्तवान्, बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः इति. इत्युक्ते मूलग्रन्थे इत्युक्ते पूर्वं प्राचीनैः यः रचितः, तस्मिन् ग्रन्थे विषयाः क्लिष्टकराः सन्ति इति कृत्वा अन्नम्भट्टेन इतोपि सरलतया पठनम् अपेक्ष्यते बालानां कृते इति कृत्वा तेन तर्कसङ्ग्रहः रचितः. बालानाम् इत्युक्ते, बालः इत्युक्ते अस्मिन् प्रसङ्गे कः? लघुबालकः वा इति प्रश्नः भवति. न, लघुबालकस्य सूचनं नास्ति अत्र. यस्य व्याख्यानस्य परिचयः अभवत् तस्य कृते एव तर्कसङ्ग्रहः रचितः. अस्तु, बालः इत्यस्य अर्थः अपि अस्ति ग्रहणधारणपटुः इति बालस्य अर्थः। अस्तु, अपि तु तर्कसङ्ग्रहे मङ्गलश्लोकरूपेण श्लोकः अपि अस्माभिः पठितः। निर्विघ्नेन कार्यसमाप्त्यर्थं भवतु मङ्गलश्लोकः इति अन्नम्भट्टमहोदयेन उक्तः अस्ति। अपि तु बालस्य अर्थः अपि दृष्टः, अन्यः अर्थः अपि लभ्यते। अधीतव्याकरणकोशाधिमान् अनधीततर्कशास्त्रः इति अर्थः अपि अस्ति। यत् मया उक्तं, यस्य व्याकरणपठने रुचिः अस्ति, न केवलं रुचिः, तस्य पठनम् अपि गभीरतया अस्ति, तस्य अपि तर्कशास्त्रविषये परिचयरूपेण तर्कसङ्ग्रहस्य रचना इति अस्ति। एतत् सर्वं वयं दृष्टवन्तः पूर्वस्मिन् सप्ताहे, केवलं पुनस्मरणरूपेण मया उक्तः इदानीम्। अस्माकं पठने प्रथमतया न्यायशास्त्रस्य विधिः का इति दृष्टम् अस्माभिः। इत्युक्ते जगति बहूनि वस्तूनि सन्ति, तर्हि तेषां श्रेणीकरणम् अपि जातः इति दृष्टम्। तर्हि कम् आदाय तेषां श्रेणीकरणम् आसीत् इत्युक्ते वस्तुषु विद्यमानं कश्चन विशेषं दृष्ट्वा, वस्तुषु विद्यमानं कश्चन विशेषं दृष्ट्वा एव ते श्रेणीकृतवन्तः। अतः सप्तपदार्थाः निर्दिष्टाः। अस्तु, कोऽपि वदति वा सप्तपदार्थाः के इति? अहं नाम आह्वयामि। सदाशिवमहोदय, भवान् वदति वा सप्तपदार्थाः के इति? मध्ये केनापि आगतं वा?
शब्दपदार्थाः द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः शब्दपदार्थाः सन्ति।
बहु समीचीनं महोदय, बहु समीचीनं। क्षम्यतां, नाम उच्यतां कृपया। हा भगिनी, आत्मनिष्ठ,
आत्मनिष्ठ वा आत्मावर्ति अधिकरणता, ज्ञाननिष्ठ वा ज्ञानवर्ति आधेयता।
समीचीनम्, अग्रे।
मननिष्ठ अधिकरणता, संख्यानिष्ठ आधेयता।
समीचीनं भगिनि, इदानीं स्पष्टं खलु? कोऽपि प्रयत्नं करोति वा? आम् आम्, प्रश्नः अस्ति वा, वदतु भगिनि।
एकं प्रश्नमस्ति, निष्ठ अथवा वर्ति अर्थं किम्?
निष्ठ इत्युक्ते विद्यमानम् इति अस्ति अर्थः। विद्यमानम् इत्युक्ते अस्ति,
अस्ति, ओके, स्थापयति, ऐ मीन् ईक्वल्स् कैण्ड् आफ़्।
हा हा हा, अस्ति इत्येव अर्थः। अस्मिन् किम्, किम् अस्ति अस्मिन्, किम् अस्ति इति अहं पृच्छामि चेत्, इत्युक्ते पृथ्व्यां किम् अस्ति? पृथ्व्याम् अधिकरणता अस्ति, न्यायभाषया पृथ्वीनिष्ठ अधिकरणता, तावदेव। गन्धे किम् अस्ति? गन्धे आधेयता अस्ति, अतः गन्धनिष्ठ आधेयता, तावदेव। वर्ति इत्युक्ते वर्तते इति वयं वदामः खलु, अस्मिन् वर्तते इति, तदेव अस्ति वर्ति।
अस्तु भगिनि, धन्यवादः।
अस्तु, अग्रे अस्तु, पृष्ठसङ्ख्या अस्ति चत्वारः. कृपया उद्घाटयन्तु. पेज् फोर् इति अस्तु. तस्मात् पूर्वम् अस्तु, अग्रे पठामः. मेहुल् महोदय पठति वा तत्र आधारत अधेयता अधिकरणता इति आरभ्य.
आम् आम्, तत्र अधेयता अधिकरणता प्रतियोगित्वादयः वक्ष्यमाणाः वा साकाङ्क्षाः ससम्बन्धिकाः पदार्थाः. साकाङ्क्षः इत्यस्य कः अर्थः? यं श्रुत्वा वितत्सम्बन्धी अन्यः कः इति जिज्ञासा सर्वदैव भवति. यथा रामः पुत्रः इत्युक्तौ कस्य इति जिज्ञासा जायते.
किञ्चित् वदति वा महोदय?
आम्, अत्र अधेयता अधिकरणता इति शब्दाः सन्ति. तत्र ते सर्वे पारिभाषिकशब्दाः सन्ति. शब्दानाम् अर्थानाम् अपि अस्ति. साकाङ्क्षाः ससम्बन्धिताः पदार्थाः इति अपि तस्य नामाः सन्ति. अत्र साकाङ्क्षः इत्युक्ते किम् अत्र दत्तमस्ति? यदि वयं आधेयता अथवा अधिकरणता इति शब्दः श्रुत्वा वयं मनसि जिज्ञासा भवति, जिज्ञासा उद्भवति यत् अन्यकः पदार्थः सम्बन्धः अस्ति. अत्र एकम् उदाहरणं दत्तमस्ति, रामः पुत्रः इति द्वौ शब्दौ श्रुत्वा वयं मनसि जिज्ञासा उद्भवति यत् कस्य पुत्रः रामः, कस्य पुत्रः इति जिज्ञासा उद्भवति. अतः रामः अपि पुत्रः च शब्दाः ससम्बन्धिकाः अथवा आकाङ्क्षाः पदार्थाः इति वयं वक्तुं शक्यते.
अस्तु, बहु समीचीनं महोदय. अस्तु, यथा मेहुल् महोदयेन उक्तं, कस्यचित् पदस्य उच्चारणेन ससम्बन्धिकपदस्य कल्पना भवति, कल्पना उदेति मम मनसि. यथा पुत्रः, सः पुत्रः इति अहं वदामि चेत् कस्य पुत्रः इति प्रश्नः उदेति. अतः पुत्रः, पिता एतौ द्वौ ससम्बन्धिकशब्दौ इति उच्यते. यदि अग्रे अस्तु, भार्या, भर्ता, सः भर्ता अस्ति इति अहं वदामि चेत् अस्तु, भर्ता वा, कस्याः भर्ता इति प्रश्नः उदेति. तादृशं न्यायभाषायाम् अपि ससम्बन्धिकौ ससम्बन्धिकौ पदार्थौ सन्ति, ससम्बन्धिकाः पदार्थाः सन्ति. यथा आधेयता, अधिकरणता, अपि तु प्रतियोगिता, अनुयोगिता इति अपि युगलम् अस्ति. आधेयता अधिकरणता इति एकं युगलं, प्रतियोगिता अनुयोगिता इति अपरं युगलं, पेर्स् इति. ये ससम्बन्धिकाः इत्युक्ते अधिकरणता इति वदनेन आकाङ्क्षा भवति, ओ आधेयता अपि अस्ति. अधिकरणम् इति वदनेन कस्य अधिकरणम् इति प्रश्नः उदेति, वा आधेयः इति वदनेन कस्य आधेयः इति प्रश्नः उदेति. अधिकरणस्य आधेयः वा आधेयस्य अधिकरणम् इति सम्बन्धम् अवगच्छामः. अस्तु, प्रश्नः अस्ति वा?
भवती वक्ष्यमाणाः इत्युक्ते किम्?
वक्ष्यमाणाः इत्युक्ते भविष्ये वयं पश्यामः. वक्ष्यते इत्युक्ते उच्यते, परन्तु भविष्यत्काले अस्ति.
अस्तु, धन्यवादः.
इत्युक्ते प्रतियोगिता अनियोगिता विषये वयं न दृष्टवन्तः, परन्तु अग्रे पश्यामः इति अग्रे वक्ष्यन्ते. अस्तु
भगिनि.
आम्,
अधिकरणता आधेयतायाः प्रतियोगी अस्ति न वा? एवम् आधेयता अधिकरणतायाः प्रतियोगी अस्ति न वा? तत् प्रथमे वाक्ये अस्ति आधेयता अधिकरणता प्रतियोगित्वादयः, तत्र विषये प्रतियोगित्वा आदि. ओके,
आम् इत्युक्ते आधेयता अधिकरणता प्रतियोगित्वम् अनुयोगित्वम् इत्यादयः इति अस्ति.
क्षम्यताम्, यस् अवगच्छामि.
अस्तु, अन्य प्रश्नः अस्ति वा? अस्तु, सदाशिव महोदय.
भगिनि, एकः प्रश्नः भगिनि.
आम्,
साकाङ्क्षा सहसम्बन्धिकाः इत्युक्ते किम् इति अहं जानामि, परन्तु साकाङ्क्षाः सहसम्बन्धिकाः द्वयोः पदोः अपि समानः अर्थः एव वा?
समान अर्थकौ एव भगिनि.
अस्तु,
साकाङ्क्षा इत्युक्ते किम्?
इन् शार्ट् आर् समथिङ्ग्?
प्रश्नः इति अर्थः न आकाङ्क्षा, प्रश्नेन ज्ञातुं भावना, आकाङ्क्षा भावना,
जिज्ञासा
भवति इत्युक्ते एक्स्पेक्टेशन्. ओ, किमपि अस्ति तत्र विषयः. आम् 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 इत्युक्ते अहं अत्र अस्मि, इदानीं पञ्चवादनम् अभवत्, अहं प्रतीक्षे, अहं सीतां प्रतीक्षे इति अहं वदामि चेत् प्रतीक्षा अस्ति खलु, एक्स्पेक्टेशन् इति. ओ, कोऽपि सीता आगच्छति वा इदानीम् इति आकाङ्क्षा भवति खलु. यदि अहं वदामि ओ अहं प्रतीक्षां करोमि इदानीम् इति अहं वदामि चेत् भवतः मनसि कः प्रश्नः उदेति? ओ, कोऽपि आगच्छति वा इति खलु, तदेव आकाङ्क्षा इति उच्यते. अतः साकाङ्क्षा इत्युक्ते आकाङ्क्षया, सम्बन्धः इत्युक्ते सम्बन्धेन सह इति अर्थः.
अस्तु अस्तु भगिनि, धन्यवादः.
अस्तु अस्तु अग्रे.
अस्तु महोदय, निष्ठवर्ति अपि समानपद एव?
समानं, समानार्थकमेव. वर्ति इत्युक्ते यस्मिन् वर्तते इति अस्ति,
यस्मिन्
विद्यमानपदं निष्ठः अस्ति. तत्र क्रियापदं निष्ठतिक्तान्तपदम् इति
तिष्ठति
इति प्रायः. अस्तु, अग्रे पठति वा? किञ्चित् चित्रस्य वर्णनं कृत्वा अग्रे पठतु महोदय, सदाशिव महोदय.
यज्ञदत्तः पृष्ठं चतुर्थपृष्ठं,
चित्रसङ्ख्या अस्ति चत्वारि,
चत्वारि चित्रसङ्ख्या चत्वारि. आदेयता त्वम् इति
न रामः, उपरि शरः अस्ति, पुत्रत्वं.
चित्रसङ्ख्या
नम्बर् फोर्,
चित्रसङ्ख्या फोर्. पुत्रत्वं, रामः पुत्रत्वं, रामः पुत्रत्वम् इति वक्तुं प्रश्नाः सन्ति, कस्य पुत्रः, केन निरूपितम् इति जिज्ञासा भवति. रामः पुत्रत्वम् इति उक्तम् इति उक्तं, कस्य केन निरूपितम् इति जिज्ञासा भवति.
इत्युक्ते रामः पुत्रः इति कोऽपि वदति, इत्युक्ते रामे पुत्रत्वम् अस्ति, तदपि न्यायभाषया एव पारिभाषिकशब्द विचारः इति वक्तुं शक्नुमः. रामे पुत्रत्वम् अस्ति इत्युक्ते सः पुत्रः इति अर्थः तस्मिन् पुत्रत्वम् अस्ति चेत् अस्तु अन्य कोऽपि पितारूपेण भवति अवश्यं यस्मिन् पितृत्वम् अस्ति इति ससम्बन्धिकाः शब्दाः इति उच्यते अस्तु तस्मात् प्राक् पेज् फैव् वसुप्रदा भगिनी भवत्याः प्रश्नः कः
अस्ति भगिनि पेज् फोर् इत्युक्ते पेज् वन् कवर् पेज् अस्ति खलु इदानीं पेज् फोर् कण्टेण्ट्स् पेज् फैव् मध्ये अस्ति तदेव वदतुम् इच्छामि
पीडीएफ् मध्ये
पीडीएफ् मध्ये
एक्स्ट्रा पेज्
अस्तु 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 हा विजया भगिन्याः प्रश्नः आसीत् किमर्थं संख्या इति गुणः इति तत्र संख्या इत्युक्ते मनसा एव अस्माकं गणनं भवति खलु एकं द्वे त्रीणि चत्वारि इति तदेव अत्र निर्दिष्टः भवति अतः एव संख्या इति गुणः मनसि वर्तते इति विजया भगिनी अग्रे अग्रे पश्यामः गणनम् इति प्रोसेसिङ्ग् इति कश्चन गुणः अस्तु अस्तु अग्रे सरेम सदाशिव महोदय पठतु कृपया
अतः पुत्रत्वं पितृत्वं भार्यात्वम् इत्यादयः सहसम्बन्धिकाः पदार्थाः सो तथा एव आदेयता अधिकरणता इत्यादयः अपि सहसम्बन्धिकाः यन्यदत्तः आदेयः इत्युक्तौ कस्य इति जिज्ञासा भवति कस्य आदेयः इति जिज्ञासा भवति आसनम् अधिकरणम् इत्युक्तौ कस्य इति जिज्ञासा भवति अतः एते अपि आदेयता अधिकरणता इत्यादयः सहसम्बन्धिकाः अन्यं पदार्थं सर्वदा अपेक्षन्ते अपेक्षन्ते रामः पितुः इत्युक्तं रामस्य पितृत्वं पुत्रत्वं भार्यात्वं त्रीणि अपि विद्यमानं भवति आदेयता अधिकरणता रामः अधिकरणः तस्य पुत्रः आदेयः इत्यपि ससम्बन्धिकाः
अस्तु एकनिमिषं ससम्बन्धिकाः के अत्र रामः पिता इति ससम्बन्धिकौ खलु
ससम्बन्धिकौ
रामः पिता इति
रामः पिता
इति ससम्बन्धिकौ अत्र भिन्नविषयः अस्ति आदेयत अधिकरणतयोः ससम्बन्धिकत्वं खलु अतः अत्र किं भवतु यज्ञदत्तस्य उदाहरणं स्वीकृत्य वदतु महोदय
यज्ञदत्तः आदेयः आसनम् अधिकरणतः
स्पष्टतया वक्तव्यं महोदय अत्र आसनम् अधिकरणम्
आसनम् अधिकरणं यज्ञदत्तः आदेयः ओ इत्यादयः अपि ससम्बन्धिकाः
कथम् इति वदतु कृपया कथम्
आसनम् अधिकरणम् आसनम् अधिकरणम् इत्युक्तौ तस्मिन् आसने कः इति अपि विज्ञातं भवति तस्य कारणात् तस्य उत्तरमपि यज्ञदत्तः आसने उपविशति तस्य कारणात् यज्ञदत्तः आदेयः अपि अस्ति आसनं यज्ञदत्तः आदेय आस अधिकरणसम्बन्धौ अस्ति
समीचीनम् अस्तु यथा रामः पिता इति उक्तौ रामः पुत्रः इति उक्तौ पितुः आकाङ्क्षा भवति, ओ पिता अस्ति इति आकाङ्क्षा भवति. तथैव आसनम् अधिकरणम् इति अहं वदामि चेत् ओ अस्तु आसने कोऽपि उपविशति, तत्र कश्चन आदेयः भवति एव इति आकाङ्क्षा भवति. यदि अहं वदामि यज्ञदत्तः आदेयः अस्ति इति अहं वदामि चेत् ओ कस्मिन् उपविशति, किम् अधिकरणम् अस्ति तत्र, गर्दभः वा आसनम् इति आकाङ्क्षा भवति खलु. केवलम् उदाहरणत्वेन वदामि. अतः अधिकरणम् आदेयः वा अधिकरणता आदेयता तयोः अपि ससम्बन्धिकत्वं वा साकाङ्क्षत्वं वर्तते एव. एकस्य वदनेन अन्यस्य आकाङ्क्षा भवति, तयोः कः सम्बन्धः इत्यस्य अवगमनं भवति. अस्तु, स्पष्टं वा?
स्पष्टम्.
अस्तु, इत्युक्ते अधिकरणता किं बोधयति? अधिकरणता आदेयतां बोधयति. आदेयता किं बोधयति? आदेयता अधिकरणतां बोधयति. अतः परस्परसम्बन्धः भवति एव. अस्तु, अग्रे बालसुब्रह्मण्यं महोदय अग्रिमं चित्रं किञ्चित् प्रतिपादयति वा?
आदेयः यज्ञदत्तः आदेयतः.
प्रथमं यज्ञदत्तः कः इति वदतु.
क्षम्यतां महोदय, पुनरेकं वदतु.
यज्ञदत्तः किम् अत्र?
यज्ञदत्तः आदेयः.
समीचीनं. तस्मिन् किम् अस्ति?
यज्ञदत्ते आदेयता अस्ति.
समीचीनम्. आदेयता वा आदेयत्वम् अस्ति. अग्रे आसनं किम्?
आसनम् अधिकरणम्. आसने अधिकरणता अथवा अधिकरणत्वम् अस्ति.
समीचीनम्. अथवा अस्माकं न्यायभाषया कथं वदामः?
न्यायभाषया इत्युक्ते सम्बन्धविषयः वा?
न, यज्ञदत्तनिष्ठ वा वर्ति इति उपयुज्य.
यज्ञदत्तनिष्ठ आदेयता एवं सदृशम् आसननिष्ठ अधिकरणता.
समीचीनं. हा, नीता भगिनी अग्रिमं चित्रं कृपया तत्र साकाङ्क्षः इति पठित्वा वदतु.
तत्र साकाङ्क्षः पदार्थः यम् अपेक्षते सः निरूपक इति उच्यते. चित्रमस्ति. आधेयता निरूपकः आधिकरणता. अधिकरणता निरूपकः आधेयता. तत्र साकाङ्क्षः पदार्थः यम् अपेक्षते. यम् पदार्थः वयं पदार्थे वयम् आशा अस्ति अथवा साकाङ्क्षः अस्ति.
इत्युक्ते
सः पदार्थः.
वदतु वदतु भगिनि.
सः निरूपक इति उच्यते.
इत्युक्ते
यम् अपेक्षते. ओके, क्षम्यताम्.
इत्युक्ते आधेयता, आदेयता कम् अपेक्षते इत्युक्ते वाट् डस् इट् रिक्वायर् इति अर्थः खलु. आदेयता अस्ति चेत् अवश्यम् अधिकरणता भवेत् खलु. इत्युक्ते युगलं खलु तत्र, आदेयता अधिकरणता इति युगलम् अस्ति.
सत्यं.
हा, इत्युक्ते ट्विन् इति. आदेयता अस्ति चेत् अवश्यम् अधिकरणता भवेत्. अतः आदेयता अधिकरणताम् अपेक्षते. कम् अपेक्षते? अधिकरणताम् अपेक्षते. अतः सः निरूपकः.
अस्तु भगिनि.
अग्रे अधिकरणता कम् अपेक्षते? काम् अपेक्षते?
आदेयताम् अपेक्षते.
अस्तु समीचीनम्. अतः निरूपकः कः?
निरूपकः आदेयता.
निरूपकः अस्ति अधिकरणता.
सोरि, क्षम्यताम्, अधिकरणता. आमामां, क्षम्यताम्.
अस्तु, धन्यवादः. इदानीं वसुप्रदा भगिनी अग्रे. पुष्पा भगिनी पठति वा? पुष्पा भगिनी अस्ति खलु?
अस्मि भगिनि. एकनिमिषं भगिनि, एकनिमिषं. अस्तु, किं वदामि भगिनि? निरूप्य निरूपकभाव व्यवस्थापनं तत्र लोके निरूपकः इत्यनेन यः वदति सः बोध्यते. तत् लोके निरूपकः इत्यनेन यः वदति सः बोध्यते. यस्य विषये उच्यते सः निरूप्यः. तत्र साम्प्रदायिकम् उदाहरणं यथा व्यासः कृष्णकथां निरूपयति. निरूपकः व्यासः व्यासनिष्ठनिरूपता.
एकनिमिषं महोदय, भगिनी तत्र तावत् मास्तु. इदानीं केवलं निरूपकः कः, निरूप्यः कः?
निरूपकः व्यासः, निरूप्य कृष्णकथा.
कथम् इति वदतु भगिनी, किञ्चित् प्रतिपादयतु.
कथं? निरूपकता व्यासः.
निरूपकः इत्युक्ते किम्? पृष्ठसङ्ख्या अस्ति पञ्चमी पृष्ठसङ्ख्या. न, अस्तु भगिनी वदतु, क्षम्यताम्.
निरूपकः व्यासः, तत्तु तत् निरूपकता अस्ति.
तस्मिन् निरूपकता अस्ति.
तत्तु कृष्णकथा निरूप्यते.
अस्तु, अहं प्रश्नं पृच्छामि. व्यासः अस्ति, सः किं निरूपयति?
कृष्णकथा निरूपयति.
व्यासः कृष्णकथां निरूपयति. अतः सः कः? तस्य नाम किम्?
व्यासः निरूपकः
खलु. सः कृष्णकथां निरूपयति इति कृत्वा सः निरूपकः. सः निरूपकः इति कृत्वा तस्मिन् निरूपकता
अस्ति. निरूपकता अस्ति.
कृष्णकथा
निरूप्यः,
यः कृष्णकथा या निरूप्यते. कृष्णकथा या निरूप्यते सा निरूप्या. तस्मिन् वा तस्यां निरूप्यता अस्ति. पुनः एकवारं
निरूप्यता अस्ति. कृष्णकथा निरूप्यता अस्ति.
कृष्णकथायां निरूप्यता.
कृष्णकथायां निरूप्यता अस्ति.
समीचीनं.
तत्तु सप्तमी विभक्ति.
आम् आम् आम्. वसुप्रदा भगिनी वदति वा, कः निरूपकः, किं का निरूप्या, कस्मिन् किम् अस्ति इति वदति वा?
भगिनी, व्यासः निरूपकः, कृष्णकथा निरूप्यता.
निरूप्या कस्मिन्? निरूपकता कुत्र?
निरूपकता कुत्र? व्यासः निरूपकता. व्यासे निरूपकता.
निरूप्यता कुत्र?
कृष्णकथायां.
समीचीनम् समीचीनम्. अत्र तत्र लोके निरूपकः इत्यनेन यः वदति सः बोध्यते. इत्युक्ते कः वदति कृष्णकथाविषये, कः वदति वसुप्रता भगिनि?
व्यासः वदति.
व्यासः वदति, अतः सः निरूपकः. इत्युक्ते यः यः बोधयति सः सः निरूपकः. यस्य विषये बोधनं जातं वा यस्य विषये बोधः जातः तत् निरूप्या वा सा निरूप्या. स्पष्टं वा?
स्पष्टं भगिनि.
अस्तु ज्योति भगिनि अग्रे पठति वा?
अत्रापि पूर्ववत् निष्ठपदप्रयोगेण. अत्रापि पूर्ववत् निष्ठपदप्रयोगेण व्यासनिष्ठनिरूपकता निरूप्यता तु कृष्णकथानिष्ठा इति निरूपणा भवति.
वदतु भगिनि
अग्रे पठामि वा?
अस्तु पठतु भगिनि.
अस्मिन् उदाहरणे व्यास एव निरूपकः, कृष्णकथा च निरूप्या एव, परन्तु आधारता आधेयता च इत्यनयोः परस्परं निरूपकता निरूप्यता च भवति. आधेयता केन निरूपिता इति प्रश्नः इव अधिकरणता केन निरूपिता इति प्रश्नोऽपि खलु तुल्यः. अतः उभयोः परस्परं निरूप्यनिरूपकः निरूप्यनिरूपकभावः भवति. आम् उदाहरणे तु व्यासः कृष्णकथां निरूपयति, तत्र व्यासः निरूपकः कृष्णकथा निरूप्या इति वयं वदामः, परन्तु आधेयता अधिकरणता तस्य अधेयता अधिकरणता इति उदाहरणमस्ति चेत् आधेयता अस्ति इति वदामः चेत् अधिकरणता कुत्र प्रश्नः उदेति. कस्य अपेक्षया आधेयता इति अपि प्रश्नः अस्ति. तदेव अधिकरणता वदामि चेत् कस्य अधिकरणता वा कस्य अपेक्षया अधिकरणता इति प्रश्नः उदेति. अतः तत्र आधेयता अधिकरणस्य निरूपकः भवति. अधिकरणतायाः निरूपकः भवति. तदैव अधिकरणता वदति चेत् अधेयता किम् अधेयता का इति प्रश्नः उदेति चेत् अधिकरणता आधेयतायाः निरूपकः भवति. अतः तत्र परस्पर निरूप्य निरूपकः भावः उदेति वा भवति.
समीचीनं समीचीनं भगिनि. यथा वयं दृष्टवन्तः अधिकरणता आधेयता तौ द्वौ ससम्बन्धिकौ. ससम्बन्धिकौ इत्युक्ते एकस्य वदनेन अन्यस्य अपेक्षा भवति वा अन्यस्य आकाङ्क्षा भवति इति. तथैव निरूपकः निरूप्या तौ अपि ससम्बन्धिकौ एव. निरूपकः इति वदामि चेत् कं निरूपयति इति प्रश्नः भवति. निरूप्या इति अहं वदामः चेत् केन निरूप्या भवति इति प्रश्नः उदेति. अतः निरूपकः निरूप्या अपि ससम्बन्धिकौ वा साकाङ्क्षौ इति वदामः. अस्तु अतः आधेयता अधिकरणता इति वदामश्चेत् तत्र अधिकरणता किं निरूपयति इति प्रश्नः, तथैव आधेयता केन निरूप्या भवति इति प्रश्नः. इदानीम् अधिकरणता आधेयता निरूप्यनिरूपकभावः सर्वेषां मेलनेन किं लभ्यते? निश्च इति उपयोगं कृत्वा किञ्चित् प्रयत्नं करोति वा वसुप्रदा? क्षम्यतां ज्योति भगिनि.
निरूप्य
अस्तु एकनिमिषं किञ्चित् अहम् आरम्भं करोमि. व्यासः अस्ति, व्यासे किम् अस्ति?
व्यासे निरूपकता अस्ति.
तर्हि निष्ठ इति प्रयोगं कृत्वा वदतु भगिनि.
आम् व्यासनिष्ठ निरूपकता अस्ति.
हा समीचीनम्. अस्तु अग्रे कृष्णकथा किम् अस्ति?
कृष्णकथायां निरूप्यता अस्ति, अतः कृष्णकथानिष्ठा निरूप्यता अस्ति.
बहु समीचीनं, बहु समीचीनम्. अग्रे सीमा भगिनी.
पठामि.
न न, एकनिमिषम्. इदानीं अग्रे अस्ति, अग्रे पठतु. इदानीं स्पष्टं खलु? एतावत्पर्यन्तं प्रश्नः अस्ति वा? व्यासनिष्ठनिरूपकता, कृष्णकथानिष्ठनिरूप्यता इति एतावत्पर्यन्तं सर्वे अवगच्छन्ति खलु? प्रश्नः अस्ति चेत् कृपया पृच्छतु, अग्रे सरेम, नो चेत्. अस्तु, स्पष्टता अस्ति इति मन्ये एतावत्पर्यन्तम्. अस्तु, अग्रे
भगिनि,
प्रश्नः अस्ति वा?
नास्ति, नास्ति, अवगच्छामि.
अस्तु, उत्तमं. तर्हि कृपया चित्रं पश्यतु भगिनी, अग्रिमे पुटे, षष्ठमे पुटे चित्रम् अस्ति. किञ्चित् सर्वे पश्यन्तु चित्रम्, चित्रं पश्यन्तु, अग्रे पठतु भगिनि.
ओके. इह पश्चात् प्रथमे इह यज्ञदत्त आधेयतावान् इति वदतु. इह यज्ञदत्तः आधेयतावान् इति वक्तुम् आश्रय इति पदम् उपकरोति. तथा च आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः यज्ञदत्तः इति. यज्ञदत्तनिष्ठ आधेयतानिरूपित अधिकरणताश्रयः आसनम् इति उभयं साधु. एवं निरूप्य
तावत्पर्यन्तं भगिनी. अस्तु, इदानीं चित्रस्य निरूपणं कुर्मः. चित्रे किम् अस्ति इति पश्यामः.
अस्तु,
अस्तु, यथा ज्योतिभगिन्या उक्तम् व्यासकृष्णकथाविषये, इदानीम् आसनयज्ञदत्तविषये किञ्चित् वदतु. अधिकरणता कुत्र अस्ति?
अधिकरणता अस्ति आसने, अतः आसननिष्ठ अधिकरणता इति वक्तुं शक्नुमः.
पुनः यज्ञदत्ते किम् अस्ति?
यज्ञदत्तः, यज्ञदत्ते आधेयता अस्ति, अतः यज्ञदत्तः आधेयवान् अस्ति. अथवा
न न, एकनिमिषम्, एकनिमिषं भगिनी, सोपानेन गच्छामः. निष्ठ इति उपयोगं कृत्वा वदतु.
ओके, यज्ञदत्तनिष्ठ आधेयता अस्ति.
समीचीनम्. इदानीं निरूपित इति योजयतु कृपया.
ओके,
तस्मिन् वाक्ये एव आसननिष्ठ,
आसननिष्ठ अधिकरणता निरूपित यज्ञदत्तनिष्ठ आधेयता अस्ति.
बहु समीचीनं भगिनी, बहु समीचीनं. पुनः वदति वा?
आसननिष्ठ अधिकरणता निरूपित यज्ञदत्तनिष्ठ आधेयता अस्ति.
बहु समीचीनं. अग्रे रघुपति महोदय, अग्रिमं चित्रं किञ्चित् निरूपयति वा?
एकम् अष्ट, चित्रसङ्ख्या,
चित्रसङ्ख्या अस्ति अष्टमम्,
अष्टमम्
अष्ट, अष्ट. यज्ञदत्ते किम् अस्ति?
यज्ञदत्ते, यज्ञदत्ते आदेयता अस्ति, अतः यज्ञदत्तनिष्ठ आदेयता.
समीचीनम्. आसने किम्?
आसने, आसने अधिकरणता अस्ति, अतः आसननिष्ठ अधिकरणता.
बहु समीचीनम्. इदानीं निरूपित इति उपयुज्य वाक्यं मिलित्वा वदतु.
यज्ञदत्तनिष्ठ आदेयता निरूपित अधिकरणवत् आसनम्.
निष्ठ इत्येव इदानीं
यज्ञदत्तनिष्ठ आदेयता निरूपित अधिकरण
आसननिष्ठ,
आसननिष्ठ अधिक, आसननिष्ठ अधिकरण.
पुनः
यज्ञदत्तनिष्ठ आधेयता निरूपित आसननिष्ठ अधिकरण
अधिकरणता खलु
अधिकरणता आसननिष्ठ अधिकरणता
हा समीचीनम् अस्तु इदानीं प्रथमं चित्रं पश्यामः तस्मिन् पुटे आसननिष्ठ अधिकरणता निरूपित यज्ञदत्तनिष्ठ आधेयता इति वाक्यं भवति सम्पूर्णं वाक्यम् अस्तु इदानीं व्यस्तप्रयोग एतत्तु समस्तपदमस्ति सर्वम् एतस्मिन् वाक्ये किं किम् आसीत् एकं पदम् एव तत् सर्वम् एकं पदमेव परन्तु व्यस्तप्रयोगे किं भवति आसन आसने निष्ठा अधिकर्णता इति भवति अस्य वाक्यस्य विभजनं कुर्मः प्रथमे सोपाने आसने निष्ठा अधिकर्णता इति भवति इत्युक्ते तत्र कीदृशसमासः सप्तमी तत्पुरुषसमासः आसने निष्ठा अधिकरणता अधिकरणता इति स्त्रीलिङ्गपदम् अतः निष्ठा इति भवति समस्तप्रयोगे आसननिष्ठ अधिकरणता अवगतम् अस्तु अग्रे आसननिष्ठ अधिकरणता अग्रिमं सोपानं किं निरूपित इति योजनेन किं भवति इति पश्यामः आसननिष्ठ अधिकरणता आसने निष्ठा अधिकरणता इति उक्तं खलु प्रथमं हा इदानीं क्षम्यताम् आसने निष्ठा इति तत्तु सप्तमी तत्पुरुषसमासः आसननिष्ठ अधिकरणता इत्युक्ते तत्र कर्मधारयसमासः भवति कथम् इत्युक्ते अधिकरणता कीदृशी इति प्रश्ने कृते आसननिष्ठा अस्ति इति उत्तरं लभ्यते आसननिष्ठा अधिकरणता अतः तत्र विशेषणविशेष्यभावः अस्ति इति कृत्वा कर्मधारयसमासः आसननिष्ठ अधिकरणता कीदृशी अधिकरणता आसननिष्ठ अधिकरणता अतः कर्मधारयसमासः पुनः समस्तपदमस्ति आसननिष्ठ अधिकरणता तृतीयम् आसननिष्ठ अधिकरणता निरूपित आधेयता इति समस्तपदम् तत्र कीदृशसमासः आसननिष्ठ अधिकरणतया निरूपिता आधेयता पुनः आधेयता स्त्रीलिङ्गपदम् अतः निरूपिता इति अस्ति व्यस्तप्रयोगे अतः आसननिष्ठ अधिकरणतया निरूपिता आधेयता अत्र तृतीयतत्पुरुषसमासः एतावत्पर्यन्तं समस्तपदं किम् अस्ति आसननिष्ठ अधिकरणता निरूपित आधेयता अस्तु पुनः अत्र आधेयता तत् यज्ञदत्तनिष्ठ आधेयता इति अस्ति खलु पुनः एतस्मिन् एकतरे यत् वयं दृष्टवन्तः तदैव अत्रापि यज्ञदत्ते निष्ठा इति अस्ति तर्हि तत्रापि सप्तमी तत्पुरुषसमासः यज्ञदत्तनिष्ठ आधेयता कीदृशी आधेयता यज्ञदत्तनिष्ठ आधेयता इति कृत्वा तत्रापि कर्मधारयसमासः अस्तु इदानीं समासविषयमपि दृष्टम् इदानीं यज्ञदत्तनिष्ठ आधेयता इति उक्तं खलु तत्र मतुप्रत्ययः इत्यस्य पदं परिचितम् इति मन्ये मतुप्रत्ययः इत्युक्ते यस्मिन् अस्ति इति अर्थः यस्य वा यस्मिन् अस्ति इति तत्र यज्ञदत्ते किम् अस्ति आदेयता अस्ति यथा रामः धनवान् इति अहं वदामि चेत् अस्तु रामस्य समीपे धनमस्ति वा रामस्य पार्श्वे धनम् अस्ति तस्य बहु धनम् अस्ति इति अवगमनं भवति अतः रामः धनवान् रामः बुद्धिमान् इति वदामश्चेत् रामे बुद्धिः अस्ति इति अर्थः अतः यस्मिन् किमपि अस्ति इति अर्थं अर्थस्य प्रकटनार्थं मत्तु प्रत्ययस्य प्रयोगः भवति मान् वा वान् इत्यस्य प्रयोगः अतः यज्ञदत्तः कीदृशः कोऽपि वदति वा मत्तु प्रत्ययस्य प्रयोगेन समीचीनं खलु समीचीनम् अस्तु तर्हि सदाशिव महोदय वदति वा
आदयतवान् आदयतावान्
यज्ञदत्तः
आदयतावान् आसनम् अधिकरणतावान्
अत्र आसनम् इति नपुंसकलिङ्गपदम् अतः आदे अधिकरणतावत्
अधिकरणतावत्
आसनम् इदानीं सम्पूर्णवाक्यं वदति वा सदाशिव महोदय
आसननिष्ठाधिकरण करणता निरूपित निरूपित निरूपितादेयता
वान्
ओ वान् वान् प्रयोगं करणे यज्ञदत्त आदेयतावान्
न किञ्चित् पुनः यज्ञदत्तनिष्ठ इति प्रथमं उक्तवन्तः वयम् इदानीं वान् इत्यस्य प्रयोगेन किं भवति
आदेयतावान्
इत्युक्ते यज्ञदत्तस्य निरूपणं भवति अतः आसननिष्ठ अधिकरणतानिरूपित आदेयतावान् यज्ञदत्तः यज्ञदत्तः कः यज्ञदत्तः कीदृशः इति प्रश्ने कृते आसननिष्ठ अधिकरणतानिरूपित आदेयतावान् यज्ञदत्तः सादृशः अस्ति यज्ञदत्तः इति उत्तरम् अत्र आशयः अपि प्रयुक्तुं शक्यते पर्यायवाचिशब्दः एव अतः आसननिष्ठ अधिकरणतानिरूपित आदेयताश्रयः यज्ञदत्तः इत्युक्ते तत्र षष्टि तत्पुरुषसमासः भवति अधि आधेयतायाः आश्रयः यज्ञदत्तः इति व्यस्तप्रयोगः समस्तपदे तु आधेयताश्रयः इति भवति समस्तपदम् आधेयताश्रयः यज्ञदत्तः स्पष्ट
भगिनि षष्टितत्पुरुषविषये पुनः वदति वा
आम् आम् अवश्यम् तत्र आदेयता कुत्र अस्ति यज्ञदत्ते अस्ति खलु अतः यज्ञदत्तः आश्रयः यस्मिन् आश्रितः आश्रिता आधेयता तस्य प्रकटनं कथं भवति आदेयतायाः आश्रयः यज्ञदत्तः कस्य आश्रयः इति वयं पृच्छामः खलु इत्युक्ते कस्य आश्रय आदेयतायाः आश्रयः यतोहि यज्ञदत्ते आधेयता अस्ति यज्ञदत्ते आधेयता अस्ति चेत् आश्रयः कः आश्रयः इत्युक्ते अधिकरणं तथैव भगिनि
अस्तु भगिनि
अतः आधेयतायाः आश्रयः आधेयतायाः अधिकरणम् इति वदामः खलु तथैव आदेयतायाः आश्रयः यज्ञदत्तः अस्तु वसुप्रदा भगिनी नास्ति रविमहोदय अग्रिमं चित्रं किञ्चित् निरूपयति वा आसनं कीदृशम् इति प्रश्नं पृच्छामि चेत् उत्तरं किं रविमहोदय
किं प्रश्नम्
आसनं कीदृशम् आसनस्य निरूपणं कृपया करोतु
यज्ञदत्त निष्ठ अधेयता निरूपित निरूपिता अधिकरणताश्रय आसनम्
बहु समीचीनं महोदय कृपया एकवारं पुनः एकवारं वदति वा
यज्ञदत्त निष्ठ अधेयता निरूपिता अधिकरणता आश्रयः आसनम्
नो चेत् अधिकरणतावत्
आसनम्
समीचीनम् अस्तु स्पष्टं कोऽपि प्रयत्नं करोति वा सम्पूर्णं वाक्यं ज्योति भगिनी?
आं करोमि. यज्ञदत्ते
यज्ञदत्तनिष्ठ समस्तपदं खलु.
अस्तु अस्तु यज्ञदत्तनिष्ठ आधेयत यज्ञदत्तनिष्ठ आधेयत कं निरूपयति अधिकरणतां निरूपयति. अतः यज्ञदत्तनिष्ठ आधेयता निरूपिता अधिकरणता सा अधिकरणता कस्य आश्रयः आसनस्य आश्रयः
सा अधिकरणता कम् और कुत्र आश्रिता अस्ति
कस्मिन् आश्रिता अस्ति अधिकरणता आसने आश्रिता अस्ति. अतः यज्ञदत्तनिष्ठ आधेयता निरूपिता अधिकरणताश्रयः आसनम्.
बहु समीचीनम्. अन्य कोऽपि प्रयत्नं करोति वा सीमा भगिनी?
यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणतावत् आसनम् अस्ति.
समीचीनं समीचीनम्. अस्तु स्पष्टम् इति मन्ये. अग्रे सरेम वा नीता भगिनी पठति वा? एवं च
भगिनि एक अस्ति
प्रश्नः अस्ति वा
अत्र यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणता अत्र निरूपिता अथवा निरूपिका अस्ति किल
यत्किमपि भवतु निरूपिका वा निरूपिता द्वयोः समानार्थकमेव.
पुल्लिङ्गमस्ति चेत् निरूपकः स्त्रीलिङ्गमस्ति चेत् निरूपिका
इति
निरूपिका किमर्थम्
एकनिमिषं भगिनि अनिता भगिनी प्रश्नः कः
क्षम्यतां सो निरूपिका किमर्थम् अस्ति चेत् आधेयत स्त्रीलिङ्गम् अतः निरूपिका अपि स्त्रीलिङ्गम्
न अधिकरणता स्त्रीलिङ्गपदम् अतः एव निरूपिका अधिकरणता इति अस्ति.
ओ क्षम्यताम् अस्तु
परन्तु आधेयता अपि स्त्रीलिङ्ग् अतः सः निरूपका अस्तु 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 इदानीं अधिकरणता निरूपिता अस्ति आधेयता निरूपिका अस्ति. समीचीनमेव भगिनी यथा भवत्या उक्तम् इत्युक्ते यज्ञदत्तनिष्ठ आधेयता निरूपिता अधिकरणता नो चेत् विपरीतदिशि अधिकरणता निरूपिका अस्ति अधिकरणता निरूपिता आधेयता तथा भवति. यदि येन आरम्भं कुर्मः सा निरूपिका अस्ति इत्युक्ते यज्ञदत्तनिष्ठ आधेयता इति निरूपिका निरूपित अधिकरणता इति
अस्तु अवगतम्
अवगतं वा वारसुब्रह्मण्यं महोदय प्रश्नः अस्ति वा आधेयता एव समस्तपदं खलु
अस्ति चेत् आधेयता
नो चेत् आधेयतायाः निरूपिका इति पदं भवति आधेयतया निरूपिता नो चेत् आधेयता निरूपिता अस्ति अधिकरणता वा आधेयतायाः निरूपिका अधिकरणता यत्किमपि अस्तु स्पष्टं वा किञ्चित् एकं पृष्ठं स्वीकृत्य समस्तपदं लिखन्तु सर्वे तदनन्तरं तस्य विभजनं करोतु भिन्नभिन्नरूपेण कं कां निरूपयति निरूपकः कः निरूपिका वा निरूपिका का निरूप्या किं निरूपयति एतत् सर्वं भिन्नभिन्न काम्बिनेशन्स् पृष्ट्वा उत्तराणि लिखन्तु तथा स्पष्टं भवति अस्तु नीता भगिनि
आं भगिनि कुत्र आरम्भं करोमि? एवं च निरूप्य निरूपकसम्बन्धः ज्ञातश्चेत् आधाराधेयसम्बन्धः अपि ज्ञायते. तथा च प्रकृते अपि द्रव्ये गुणः तिष्ठति इत्यत्र आधाराधेयभावः सुज्ञेयः.
वदतु भगिनि, प्रथमं चित्रस्य प्रथमभागः अपि कृपया निरूप्यताम्.
आम्, एवं च निरूप्यनिरूपकसम्बन्धः ज्ञातश्चेत् आधाराधेयसम्बन्धः अस्ति चेत् यदा वयं दृष्टवन्तः पूर्वमपि आधेयता, अधिकरणता अथवा प्रतियोगिता, अनुयोगिता तथा एव निरूपकः निरूप्य अपि ससम्बन्धिकपदः भवति. तथा च प्रकृते अपि द्रव्ये गुणः तिष्ठति इत्यत्र आधारादयभावः सुज्ञेयः. इत्युक्ते द्रव्यगुणः अपि तथा ससम्बन्धिकपदः एव इति उच्यते अत्र. किमर्थं चेत् द्रव्यम् अस्ति चेत् तस्य गुणः कः इति प्रश्नः अस्ति, उदेति अथवा आकाङ्क्षाः भवति. गुणः अस्ति चेत् तस्य द्रव्यकः इति अपि आकाङ्क्षा भवति. अतः द्रव्यगुणः द्वयमपि ससम्बन्धिकपदः भवति.
समीचीनम्. अतः द्वयोः कीदृशभावः अस्ति द्वयोः मध्ये?
कीदृशभावः
इदानीं दृष्टवन्तः खलु, साकाङ्क्षापदार्थाः चेत् निरूप्यनिरूपकभावः इति.
आम् आम्, क्षम्यताम्. आम्,
हा, एकम् अपरं निरूपयति इति खलु?
आम् आम्
इति, हा, तत्तु प्रथमं. अनन्तरं प्रथमं तु कः कस्मिन् विद्यते इति प्रश्नः खलु. अतः आधारादेयभावः प्रथमम्, अनन्तरम् एकम् अपरं निरूपयति इति कृत्वा निरूप्यनिरूपकभावः खलु. अतः एव प्रथमे वाक्ये एवं च निरूप्यनिरूपकसम्बन्धः ज्ञातश्चेत् आधारादेयसम्बन्धः अपि ज्ञायते.
अस्तु, इदानीम् अवगतम्.
इत्युक्ते तादृशौ पदार्थौ सन्ति चेत् द्रव्यं गुणः तत्र न केवलम् आधारादेयभावः दृश्यते,
निरूपकभावः अपि सम्बन्धः अपि वयं ज्ञाय.
समीचीनम्. इदानीं चित्रस्य निरूपणं करोतु कृपया.
आम् आम्, द्रव्यं द्रव्ये अधिकरणता अस्ति, अतः द्रव्यनिष्ठ अधिकरणता निरूपित प्रथमस्थलम् अहं क्रमेण वदामि. द्रव्ये द्रव्यनिष्ठ अधिकरणता, अनन्तरं गुणनिष्ठ आधेयता, अनन्तरं द्रव्यनिष्ठ अधिकरणता निरूपित आधेयता आश्रयः गुणः.
बहु समीचीनम्. अथवा भिन्न
अथवा भिन्नरीत्या गुण अस्तु. आम् आम्, द्रव्यनिष्ठ अधिकरणता निरूपित आधेयतावान् गुणः.
बहु समीचीनं, स्पष्टं खलु?
आम् स्पष्टम्, इदानीं स्पष्टम्. आम्
अस्तु. अन्य रघुपतिमहोदय, द्वितीयं चित्रं किञ्चित् निरूपयति वा? द्रव्यं किं, द्रव्यं कीदृशं?
द्रव्यं द्रव्यमस्ति गुणनिष्ठ आधेयता निरूपित अधिकरणतावत् द्रव्यम्.
आम्, समीचीनं. वा आश्रयः इति उपयुज्य
गुणनिष्ठ आधेयता निरूपित अधिकरणताश्रयः द्रव्यम्. अधिकरणताश्रयः द्रव्यम्.
समीचीनम्. अग्रे पठति वा किञ्चित् एवं सति?
एवं सति द्रव्यं प्रथमतः कुतः निर्दिष्टम् इत्यस्य समाधानम् इतरे सर्वेऽपि द्रव्यम् आश्रित्य तिष्ठन्ति इति यद् उक्तं तदपि स्पष्टम्।
अग्रिमं चित्रम् अस्ति, कृपया गृहपाठरूपेण सर्वे कृत्वा आगच्छन्तु अग्रिमे सप्ताहे। इत्युक्ते अस्मिन् चित्रे किम् अस्ति, अधोभागे सर्वत्र द्रव्यम् अस्ति खलु, इत्युक्ते द्रव्यम् आश्रित्य एव, आश्रित्य वा अधिकृत्य एव सर्वे तिष्ठन्ति इत्यस्य प्रदर्शनम् अस्ति। परन्तु न्यायभाषया कथं वदामः इति कृपया गृहपाठरूपेण कुर्वन्ति वा सर्वे? इत्युक्ते निष्ठ निरूपित इति उपयुज्य, यथा गुणद्रव्योः मध्ये कीदृशसम्बन्धः इति वयं दृष्टवन्तः खलु अस्मिन् चित्रे, यथा गीता भगिनी अपि तु रघुपतिमहोदयेन उक्तं, तथैव षट्षु सन्दर्भेषु षट्षु चित्रे उदाहरणेषु कं निरूपयति, कुत्र आश्रितः भवति इति सर्वं समस्तपदम् उपयुज्य एकेन वाक्येन प्रत्येकम् उदाहरणं निरूपयतु कृपया। स्पष्टं वा इदानीं? प्रश्नः अस्ति चेत् कृपया पृच्छ। अस्तु, उत्तमम्। विजया भगिनी, प्रश्नः अस्ति वा?
मम एकः प्रश्नः अस्ति भगिनि।
आम्, अवश्यं भगिनि।
निरूप्य निरूपकभावः यदस्ति आधारता अधेयता मध्ये, तत् बै डिरेक्षनल् अस्ति न वा?
आम्, सम्यक् प्रश्नः एव भगिनि। भवती किं चिन्तयति?
क्षम्यतां, भवती किञ्चित् पृष्टवती।
भवती किं चिन्तयति?
अहं चिन्तयामि आधेयता अधिकरणता मध्ये बै डिरेक्षनल् अस्ति।
समीचीनं। परन्तु अस्माकं व्यासविषये, व्यासकृष्णकथाविषये तु एकस्मिन् विषये एव अस्ति। किमर्थम् इत्युक्ते कृष्णकथा कदापि व्यासं बोधयति वा? व्यासमेव बोधयति वा इति प्रश्नः न खलु? आम्, बहवः जनाः कृष्णकथां लिखितवन्तः खलु, लिखन्ति अपि। अतः कृष्णकथा व्यासमेव निरूपयति इति वक्तुं न शक्नुमः। परन्तु व्यासः अत्र अस्मिन् उदाहरणे व्यासः कृष्णकथां निरूपयति इति वक्तुं शक्नुमः। अस्मिन् उदाहरणे व्यासः तु किं महाभारतः इति कृष्णकथायाः विषये एव अत्र
पुराणः अपि इतिहासः अपि
प्रायः लिखितवान् इति मन्ये। परन्तु अस्मिन् उदाहरणे एकस्मिन् दिशि एव अस्ति। परन्तु साधारणतया आधार आधेयभाव अधिकरणता आधेयता तु द्विदिशि अस्ति, दिशि द्वयात्मकं भवति, द्वयात्मकं भवति। द्रव्यं गुणं निरूपयति, अपि तु गुणः द्रव्यं निरूपयति, तदपि द्वयात्मकं भवति। तथैव सर्वत्र अपि। अस्तु, अन्यप्रश्नः अस्ति वा?
धन्यवादः।
उत्तमं, तर्हि धन्यवादः। कृपया गृहपाठं कृत्वा आगच्छन्तु सर्वे।
भगिनी,
आम् आम्,
तर्कसङ्ग्रहस्य विषये इर्रेलेवेण्ट् क्वश्चन् अस्ति, किञ्चित् अग्रे आगमिष्यति तस्य विषये अस्ति प्रष्टुं शक्नोति।
अहं मुद्रणं तु स्थगयामि, ये केऽपि गन्तुम् इच्छन्ति गच्छन्तु, तत्र कोऽपि निबन्धः नास्ति।